mi dici tu bacio pura summa ni summa bia ma sura bia ne sa ci poti trilukyam jagga bhagascha hrita madavala swayat tavi va surya dang tadava dadikaram tathindava kuvira matajam mancha chakrati varunashacham tavi va pavanar dhincham Chakratur banni karmacha tatu deva binirdhuta bhrashta rajya parajita hritadhikarastra dasa stabhyang sarve nirakrita mahasurabhyang tang devim samsmaranta parajitam tayasmakam varo datto yatha passu smrita akhila bhavatam nashayishyami tat chanat parama para iti kritva matiṃ deva himabantaṃ nageśvaraṃ jagmustatra tato devīṃ viṣṇu māyāṃ pratuṣṭu deva ucu namo devai mahādevai shivāvai satataṃ namā namā prakītai bhadrāvai niyatā pranatā smataṃ Rudravai namo nityavai Gaurjai dhatrai namo nama Jyosnavai chendurupinai Sukhavai satatang nama Kalyanai pranatabiddhai Siddhai kurmo namo nama Nairittai bhubhritang lakshmai Sarvannaite namo nama Durgavai durgaparavai Saravai sarvakari Khyatai tataiva krishnavai Dhumravai satatang nama Ati shumya Ravai natastasai namo nama namo jagat pratisthavai vai kritai namo nama ya devi sarva bhuteshu vishnu maye tishavadi namastasai 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 namo nama ya devi sarva bhuteshu chetanetta vidhiyate namastasai 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 namo nama ya devi sarva bhuteshu buddhi rupena sanghasthita namastasai 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 namo nama ya devi sarva bhuteshu nidra rupena sanghasthita namastasai 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 namo nama ya devi sarva bhuteshu Chudarupena sthita namastasai 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 namo nama ya devi sarva bhuteshu chaya rupena sthita namastasai 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 namo nama ya devi sarva bhuteshu Shakti rupena sanghasthita namastasai 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 namo nama ya devi sarva bhuteshu krishna rupena sanghasthita namastasai 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 namo nama ya devi sarva bhuteshu shanti rupena sanghasthita namastasai 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 namo nama ya devi sarva bhuteshu jati rupena sanghasthita namastashai namastashai namo namah ya devi sarva bhuteshu lajja rupena sansthita namastashai 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 namo ya devi sarva bhuteshu shanti rupena sansthita namastashai 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 namo namah ya devi sarva bhuteshu shraddha rupena sansthita namastashai 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 namo namah ya devi sarva bhuteshu kanti rupena sansthita namastashai 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 namo namah ya devi sarva bhuteshu lakshmi rupena sansthita namastashai 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 namo namah ya devi sarva bhuteshu vritti rupena sansthita namastashai 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 namo namah ya devi sarva bhuteshu smriti rupena sansthita namastashai 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 namo namah ya devi sarva bhuteshu dvayarupena sansthita namastashai 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 namo namah ya devi sarva bhuteshu tushti rupena sansthita namastashai 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 namo namah ya devi sarva bhuteshu matri rupena sansthita namastashai 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 namo namah ya devi sarva bhuteshu bhranti rupena sansthita namastashai 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 namo namah indriyanam adhishtatri bhutanam cha akhileshu ya bhuteshu satatam tasyai vyakti devai namo namah chiti rupena ya krishna metad vyapya sthita jagat namastashai 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 namo namah stuta asurai purvam abhishta sansaya tatha surendrena dineshu sevita karo tushana shubhaye turishwari shubhani bhaddanna viyantu chapada ya sampratam chuddhata daityatapitai rashma bhidisha cha surair namasyate ya cha samrita tat kshaname mahantina sarva padu bhakti vinamra murti ve rishiruvacha evam stavadi yuktanam devanam tatra parvati satu madhyaya jautoye janhavyan panandana sabravittan suran subhrbhavad bhistuyate traka sharira kosha tashchasya samudabhuta bravichiva stotvam mamaitat kriyate summa daitya nirakrute devai shametai shamare nishumhena parajite sharira kosha dajatyasya parvatya nishtitambika kaushikiti samasteshu tato lokeshu giyate तस्यां विनिर्गतायन्तु कृष्णाभूत सापि पार्वती कालिकेति समाख्याता हिमाचलकृताश्रया ततुम्बिकं पडङ्गरूपं बिभ्राणां सुमनोहरां ददर्श चण्डुमुण्डश्च भृत्तौ शुम्भानि शुम्भय ताभ्यं शुम्भाय चाख्याता अतीव सुमनोहरां कापस्ते स्त्रीमहाराज भाषयन्ति हिमाचलं नैव तादिकचिद्रूपं दृष्टं केनचिदुत्तमं ज्ञायतं कापसौ देवी गृह्यतं चाशुरेश्वरं स्त्रीरत्नामतिचरभङ्गी दूतयन्ती दिशस्तिशां छातु तिष्ठति दैत्येन्द्रां तं भवान् द्रष्टुमार्हति यानि रत्नानि मनयो गजस्वादिनि वै प्रभु त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ऐरावत समानीतो गजरत्नं पुरन्दरात् पारिजाततरुश्चायं तथैवोच्चैश्रवाहयः विमानं हंससंयुक्तं नेतत्तिष्ठति तेऽङ्गने रत्नभूतमिहानीतं जदाशिद्वेदशोद्भुतं निधिरेश महापदम समानीतो धनेश्वरार् किञ्जल्किनिं ददौ चाब्धे मालामम्लान पङ्कजं छत्रं ते वारुणङ्गेः काञ्चनस्रावि तिष्ठति तथायं स्यन्दनवरु यः पुराशिद् प्रजापते मृत्युरुत्कान्तिदा नाम शक्तिरीशाशयत्वया हृता पाशसलिलराजस्य भ्रातुस्तव परिग्रहे निशुम्भस्याभिजाताश्च समस्ता रत्नजातय वह्नीरपि ददौ तुभ्यम् अग्निशौचे च वाससि एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते स्त्रीरत्नमेषा कल्याणि त्वया कसमन्न गृह्यते ऋषेरुवाच निशम्येति वचः शुम्भ स तदा चण्डमुण्डयो प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् इति चेति च वक्तव्या सागत्या वचनान् मम यथा च भीति संप्रीत्या तथा कार्यं तया लघु स तत्र गत्ता जत्तास्ते शैलोद्देशिति शोभने सा देवी तं ततप्राह सख्नं मधुरया गिरा दूत उवाच देवी दैत्येश्वर शुम्भ स्त्रीलोके परमेश्वरा दूतोऽहं प्रेषितस्तेन तत्सकाशमिहागत अव्याहताग्र सर्वासु यस्सदा देवजोनिषु निर्जिताखिल दैत्यारि स जदाह शृणुशतर् मम त्रैलोकमखिलं मम देवावशानुगा यज्ञभागानहं सर्वा नुपश्नामि पृथक् पृथक् त्रैलोक्यै वररत्नानि मम वश्यन्न शेषतः तथैव गजरत्नानि हृत्वा देवेन्द्रवाहनं क्षिरोदामथनुद्भूत मश्रत्नं ममामरे उच्चैश्रवसङ्गं तत् प्रणिपत्य समर्पितं यानि चान्यानि देवेषु गन्धर्वेषु रगेषु च रत्नभूतानि भूतानि तानि मज्जीव शोभने स्त्रीरत्नभूतं त्वं देवी लोके मन्यामहे वयं सा त्वमश्वानुपागच्छ जतो रत्नभुजो वयं मां वा ममनुजं वापि निशुम्भमुरुविक्रमं भज त्वं चञ्चलापाङ्गी रत्नभूता शिवै यतः परमैश्वर्यमतुलं पाप्सशे मत्परिग्रहाद् एतद् बुद्ध्या समालोच्य मत्परिग्रहतं भज ऋषिरुवाच इत्युक्ता सा तदा देवी गम्भीरान्तस्मिता जगौ दुर्गा भगवती भद्रा ययेदं धार्यते जगत् देवुवाच सत्तमुक्तं त्वया नात्र मिथ्या किञ्चित् त्वयोदितं त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथं श्रूयता मल्पबुद्धित्तात् प्रतिज्ञा या कृता पुरां यो मं जयति संग्रामे यो मे दर्पं वपोहति यो मे प्रतिबलो लोके स मे भर्ता भविष्यति तदा गच्छतु शुम्भोऽत्र निशुम्भो व महासुरा मां जित्वा किं चिरेनात्र पाणिं गृह्णातु मे लघु दूतौ वाचम् अवलिप्त्याशिमैवं त्वं देवी ब्रूहि ममाग्रतः प्रीलोक्ये कः पुमां तिष्ठेदग्रिशुम्भनिशुम्भयो अन्येषामपि दैत्यानां सर्वे देवानवैजुधि तिष्ठन्ति शम्मुखे देवी किं पुनस्ति त्वमेकिकाम् इन्द्राद्दशकला देवा तस्थुर्जे संन संयुगे शुम्भादीनं कथं तेषां स्त्रीप्रयाश्वसि सम्मुखं सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयो केशाकर्षण निर्धूता गौरवामागमिष्यसि देव्युवाच एवमेतद्बली शुम्भो निशुम्भश्चातिबीजवान् किं करोमि प्रतिज्ञा मे जदनालोचिता पुरा सत्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृत तदा चक्षासुरेन्द्राय स च युक्तं करोतु यानम् इति मार्कण्ड्यपुराणे सावर्णिके मन्नन्तरे देवी माहते देव्या दूतसंवाद पञ्चमाध्याय ऋषिरुवाच इत्याकर्णवचो देव्या साधूतो मर्षपूरिता समाचष्ट समागम दैत्यराजाय विस्तराद् तस्य दूतस्य तद्वाक्य मा कर्ण्या सुररात्तत सक्रोध प्रह दैत्याना मधीपं धूम्रलोचनं हे धूम्रलोचनाशुत्वं स्वसैन्य परिवारित तामानय बलाद्दुष्टं केशाकर्षण विह्वलं तत्परित्राण कश्चिन् यदि वो तिष्ठते परा स हन्तव्यो मरो वापि जक्षो गन्धर्व एव वा ऋषिर्वाच तेन ज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचना मृतश्चाशहस्राणा मसुराणं दुतं यजौ स दृष्ट्वा तं ततो देवीं द्विनाचल संस्थितं जगादुश्चैः प्रजाहीति मूलं शुम्भनिशुम्भयो न चेत् प्रत्याद्य भवति मदभर्तारमुपैष्यति ततो बलन्वयं मेष केशाकर्षण विह्वलं देवुवाच दैत्यश्वरेण प्रहितो बलवान् बलसंवृतः बलान्नयसिमामेवं ततः किं ते करुम्बं ऋषिरुवाच इत्युक्तः शोभदावत्तामसुरो धूम्रलोचना हुङ्कारेणैव तं भस्य सा चकारम्बिका ततः अतः क्रुद्धं महासैन्यं मसुराणं तथम्बिकं बवर्ष सायकैः स्तिघ्नैः तथा शक्ति परश्वधैः ततो धूतशटकोपाद् कृत्वा नादं सुभैरवं पपातासुरसेनायां सिंहो दिव्यः सवाहन कांश्चित्करप्रहारेण दैत्यानश्येन चापरन् आक्रान्ता चाधरेन्नन्नन् जघानसु महासुरं केषाञ्चित् पाटयामास नखैः कुष्ठानि केसरीं तथा तलप्रहारेण शिरं स्वीकृतवान् पृथक् विच्छिन्नबाहुशिरसः कृतस्तेन तथा परे प्रभुच रुदिरं कुष्ठा दण्डेशन धूतकेशर क्षणेन तद्बलं सर्वं क्षयं नीतं मयात्मनां तेन केशरिणा देव्या वाहनेनाधिकोपिना श्रुत्वा तमसुरं देव्या नियतं धूम्रलोचनं बलं च क्षयितं कृष्णं देवी केशरिणा तदा चुकोपदैत्याधिपते शुम्भप्रस्फुरिताधर आज्ञापयमास च तौ चण्डमुण्डौ महासुरौ हे चण्ड हे मुण्ड बलै बहुलै परिवारितौ तत्र गच्छत गत्वा स्थासमान्यतं लघु केशे स्वाकृष्यबद्धा वा यदि वः संशयो युधि तदा शेषायुधैः सर्वैः रसुरैर्विनिहन्नतं तस्यां हतायां दुष्टायां सिंहे च विनिपातिते शीघ्रमागम्यतं बद्धा गृहीत्वा तामथम्बिकम् इति मार्कण्ड्यपुराणे सावर्णिके मन्नन्तरे देवी माहात्म्ये शुम्भनिशुम्भशीलानि धूम्रलोचनवद षष्ठाध्याय ऋषिरुवाच अग्रपस्तु ततो दैत्या श्चण्डमुण्डा पुरुगमा चतुरङ्गबलोपेता जजुरबुद्धतायुध दधिषुस्ते ततो देवीं मीषद्धासङ्गमवस्थितं सिंहस्योपरिशैलेन्द्र शृङ्गे महति काञ्चने ते दृष्ट्वा तं समादातु मुद्दमञ्चक्रुद्दत आकृष्ट चापाशिधरा तथान्ये तत्समीपग ततः कूपं चकारोच्चै रम्बिका ता नरीं पतिं कूपेन च श्यावदनं मशिवर्णमभूत्तदा भ्रुकुटीकुटिलास्तस्य ललाटफलकादृतं कालीकरालवदना विनिष्कन्ताशिपाशिनी विचित्रखट्टाङ्गधरा नरमाला विभूषणा दीपिजन्मपरिधाना शुष्कमंसातिभैरवा अतिविस्तारवदना जिह्वालनभीषणा निमग्नारक्तनयना नादापूरितनिर्मुखा सावेगेनाभिपतिता घातयन्ती महासुरं सैन्ये तत्सुरारीणां महक्षय तद्बलं पाश्लिङ्गाहङ्कुशग्राही जोदघण्टा समन्वितं समादायैकहस्तेन मुखे शिक्षेप वारणं तथैव जोधं तुरवै रथं सारथिना सह निक्षिप्य वक्त्रे दशनै चर्वयत्ततिभैरवम् एकं जग्राह केशेषु गायामथ चापरं पादेन क्रमचैवन्न मुरसन्नमपोथयत् तैमुक्तानि च सहस्राणि महस्राणि तथासुरैः मुखेन जग्राहरुषा दशनैमथितान्नपि बलिनं तद्बलं सर्व मसुरानं महात्मनं ममर्दा भक्ष्यश्चन्य नन्नंश्च तारयत्तथा अशिनानि हतः केचिद् केचिद् खट्टाङ्गताडिता जगमुर्विनाशमसुरा दन्तग्राभिहतास्तथा क्षणेन तद्बलं सर्व मसुरानं निपातितं दृष्ट्वा चण्डुः विदुद्राव तं कालीमतिभीषणं सर्वर्षै महाभीमै भीमाक्षीं तं महासुरा छादयामास चक्रैश्च मुण्डक्षिप्तैः सहस्रशः तानि चक्रन्ननेकानि विषमानानि तन्मुखं बभूर्यथार्कबिम्बानि सुबहूनि घनोदरम् ततो जहसाति दुषां भीमं भैरवनादिनी कालीकरालवक्रान्त दुर्दर्श दर्शनोज्ज्वलां उत्थाय च महासिंहं देवी चण्डामभाधतां गृहीत्वा चाश्वकेशेषु शिरस्तेनाशिनाच्छिनत् अथ मुण्डोपधावत्त्वं दृष्ट्वा चण्डं निपातितं तमपपातयद भूमौ शाखरगाभिहतं रुषां हतशेषं ततश्चैन्नं दृष्ट्वा चण्डं निपातितं मुण्डं च सुमहाबीजं दिशो बीजे भयातुरं शिरश्चण्डश्च काली च गृहीत्वा मुण्डमेव च प्राह प्रचण्डाट्टहास मिश्रमभृत्त चण्डिकम् मया तवात्रोपहितौ चण्डमुण्डौ महापशु युद्धजज्ञे स्वयं शुम्भं विशुम्भं च हनिष्यसि ऋषिरुवाच तावानि तौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ उवाच कालीं कल्याणी ललितं चण्डिकावचं जस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागतां चामुण्डेति ततो लोके ख्याता देवी भविष्यसि इति मार्कण्डपुराणे सावर्णिके मन्वन्तरे देवी महात्य चण्डमुण्डवद सप्तमध्याय ऋषिरुवाच चण्डे च निहते दैत्ये मुण्डे च विनिपातिते बहुलेषु च सैन्येषु क्षैतेष्वासुरेश्वर ततः कूपपराधीन चेतः शुम्भप्रतापवान् उद्योगं सर्वसैन्याना दैत्यानामादिदेशः अद्य सर्वबलैर्दैत्या षडशीतिरुदायुधा कम्बूनं चतुराशीति निर्जन्तु सबलैर्वृता कोटिबीजानि पञ्चाशत् दशुरानङ्कुलानि वै शतङ्कुलानि धूम्राणं निर्गच्छन्तु ममग्वया कालकादौ हृता मौर्या गालोके अस्तथाशुरा युद्धाय सज्जा निर्जन्तु अज्ञया त्वरिता मम इत्यज्ञत्वा शूरपति शुम्भो भैरवशासन निर्जगाम महासैन्य सहस्रै बहुविवृत आयातं चण्डिका दृष्ट्वा तत्सैन्यामतिभीषणं यश्वनैः पूरयामास हरणी गगनान्तरं ततःसिंहो महानाद अतीव कृतवान् निपं घण्टाश्वनेन तन्नाद नम्बिका चोपबृंहयत् धनुर्जा सिंह घंटानं शब्दा पूरित दिन मुखा निनादैर भीषण काली जिज्ञे विस्तारितानन तंग निनादं वस्रुत्व दैत्य सैन्यश्चतुर्दिशं देवी सिंहस्तथा काली सरोषै परिवारिता एतस्मिन्नन्तरे भूपं विनाशाय सुरद्दिशं भवायामर सिंहाना मतिवीज बलान्विता ब्रह्मेश गुह विष्णुना तथेन्द्रश्व च सत्तया शरीरेभ्य विनिष्क्रम तद्रूपैश्चण्डिकां यज यस्य देवस्य यद्रूपं यथा भूषणवाहनं तद्वदेव हि तच्छक्ति रसुरञ्जोद्धुमा यज हंसयुक्त विमानग्रे साक्षसूत्रकमण्डल आयाता ब्रह्मणः शक्ति ब्रह्माणी साविधीयते माहेश्वरी विशारूढा त्रिशूला वरधारिणी महायी बलया प्राप्ता चंद्ररेखा विभूषणा कौमारी शक्तिहस्ता च मयूरा वरवाहना जोद्धुमभ्याजो दैत्या नम्बिका गुहारूपिणी तथैव वैष्णवी शक्ति गरुडोपरि संस्थिता शंखचक्र गदासांग खड्गहस्त्याभ्युपाजो जग्गवाराह मतुलं रूपं या बिभ्रतो हरे शक्ति शाप्राजो तत्र बाराहिं बिभ्रति तनुं नारसिंही निसिंहस्य बिभ्रति सदिशं वपुः प्राप्ता तत्र शतक्षेप क्षिप्त नक्षत्र संहते वज्रहस्ता तथैव इन्द्रे गजराजोपरिस्थिता प्राप्ता सहस्रनयना यथा शक्रस्तथैव स ततः परिवृतस्ताभि दिशालो देवशक्तिभिः हन्नन्तामसुराश्चिघ्रं मम प्रत्याह चण्डिकं ततो देवी शरीरात्तु विनिष्कान्तातिभीषणा चण्डिका शक्तिदत्तुग्रा शिवा शतनिनादिनि सा चाह धूम्रजटिल मीशानमपराजिता दूतं तं गच्छ भगवन् पार्श्वं शुम्भ निशुम्भयो ब्रूहि शुम्भं निशुम्भं च दानवावधिगर्वितौ ये चन्ने दानवास्तत्र युद्धाय समुपस्थिता त्रैलोकमिन्द्रो लभतं देवः सन्तु हविर्भुज यूयं प्रयात पातालं यदि जीवितुमिच्छत बलाबले पातत चेद् भवन्तो युद्धकाङ्क्षिण तदा गच्छतु तिप्पन्तु मच्छिवाप्रिषितेन वा यतो नियुक्तजौतेन तया देव्य शिवः स्वयं शिवदूतीति लोकेऽस्मिन् ततस्याख्यातिमागता तेऽपि सुत्ता वचो देव्या सर्वख्यातं महासुरा अमर्षा पूरिता जगमुर्यतः कात्ताय निस्थिता तत प्रथममेवाग्रे षडशक्तिष्टिभिष्टिभि बवर्षोरुद्धतामर्ष्या तं तं देवी मम राडय साचदन् प्रहितान् बाणन् शूलचक्रपरश्रधन् चिच्छेदालीलया ध्यात धनुर्मुक्तै महेशुभे तस्याग्रतस्तथा काली शूलपात विदारितान् खट्टाङ्ग प्रोथितांश्चारीन् कुर्वती वचनत्तदं कमण्डलु जलाक्षेप हतवीर्यन् हतौ यश ब्रह्माणि चाकरोच्छत्रून् येन येन स्मधावती महेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी दैत्यञ्जगान कौमारी तथा शक्त्यादिकोपना ऐन्द्री कुलिशपातेन शतशो दैत्यदानवा पेतुर्विदारिता प्रत्यं हृदिरोगप्रवरशिना तुण्डप्रहारविध्वस्ता दंष्टाग्रक्षत वक्षस वराहमूर्ता नपदं चक्रेण च विदारिता नखैर्विदारितांश्चन्दन् भक्ष्यन्ति महासुरं नारसिंहि च चाराजौ नादापूर्णदिगम्बरं चण्डाट्टहासैरसुरा शिवदूत्तविधूषिता पेतुपृथिव्यं पतितं चंशका दातु सा तदा इति मातृगणं क्रुद्धं मर्दयन्तन् महासुरन् दृष्टा भूपायुर्विविदैः नेषुरुदेवारि सैनिका न पलायन परं दृष्ट्वा दैत्यान् मातृगणार्दितान् जोद्धुमव्याजौ क्रुद्धो रक्तबीजौ महासुर रक्तबिन्दुर्यदा भूमौ पतस्तस्य शरीरतः समुत्पतति मेदिन्या तत्प्रमाणस्तदासुर जुजुदेश कदा पाणि इन्द्रशक्त महासुर ततश्चैन्द्रिशवज्रेण रक्तबीजमतारत् कुलिशेन हतस्याशु तश्वासु सावशोनितं समुत्तस्थु ततो दे जोधा तद्रूपा तत्पराक्रमः जावन्तः पतितास्तस्वा शरीराद्दक्तवृन्दव तावन्तः पुरुषा जाता तद्बीजवलविक्रम ते चापि जुजुधुस्तत्र पुरुषारक्तसम्भवा क्षमं मातृभिरत्तुग्र शस्त्रपातादिभीषणं पुनश्च वज्रपातेन क्षतमश्च शिरो यदा बवाह रक्तं पुरुषा ततो जाता सहस्रश वैष्णवी शमरे चैनं चक्रेनाभिजगानः गदया चारयामास ऐन्द्रीतम सुरेश्वरं वैष्णवी चक्रभिन्नश्च रुधिरस्रावसम्भवैः सहस्रसु जगद्व्याप्तं तत्प्रमाणै महासुरैः शक्त्या जघानकौमारी बाणैः च तथाशिना माहेश्वरी त्रिशूलेन रक्तबीजं महासुरं स चापि गदया दैत्य सर्वा एवाहनत् पृथक् मातृः कोपसमाविष्टो रक्तबीजो महासुर तस्या हतस्य बहुधा शक्तिशूलादिभिर्भुवि पपातजो वै रक्तोग स्थिरा चञ्चतशोषुरा तैश्चाशुराशिसंभूतैः रसुरैः सकलं जगद् व्याप्तमासीत् ततो देव भयमाजग्मरुत्तमं तान् विषन्नान् सुरान् दृष्ट्वा चण्डिका प्राहसत्तरा उवाच कालिङ्गि चामुण्डे विस्तरं वदनं कुरुम् मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् रक्तबिन्दुः प्रतिच्छत्वं वक्त्रिणानेन वेगिता भक्षयन्ती चररणे तदुत्पन्नन् महासुरान् एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति भक्ष्यमानास्त्वया चोग्रा नाचोत्पत्सन्ति चापरे इत्युक्त्वा तं ततो देवी शूलेनाभिजघानतं मुखेन कालीयगृहे रक्तबीजस्य शोणितं ततो सावाजघानाथ गदया तत्र चण्डिकं न चस्या विदनं चक्रे गदा पातुलिपिकामपि तस्या हतस्य देहात्तु बहुषु सावशोनितं जतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतिच्छति मुखे समुद्गता एष्या रक्तपातन महासुरा तंश्चखादात चामुण्डा पपौ तस्य च शोणितं देवी शूलेन वज्रेण बाणैरशिभिरिष्टिभिः जघान रक्तबीजं तं चामुण्डा पीतशोणितं स्वपपातमहीपृष्ठे शस्त्रसङ्गा समाहत नीरक्तश्च महीपाल रक्तबीजो महासुर ततस्ते हर्षमतुलं मवापुरस्थितशा निप तीशं मातृगणो जातो नरर्ता श्रृङ्गमदोद्धत इति मार्कण्डपुराणे सावण्यमन्मन्तरे देवी महाते रक्तबीजवदष्टमध्याय।